सर्वेभ्यो नमः. अस्माकं प्रवर्तमानः विषयः अस्ति चतुर्थी विभक्ति. तस्मिन् विषये वयं गतवर्ते एकां कथां पठितवन्तः. अपि तस्य पूर्वं तु किञ्चित् अभ्यासम् अपि कृतवन्तः. तत्र चतुर्थी विभक्ति रूपाणि एकवारं पुनस्मरणं कृत्वा तत्र चतुर्थी विभक्तेः प्रयोगः तत्र किञ्चित् करणीयमासीत्, किन्तु वयं न कृतवन्तः. तत् शीघ्रमेव कृत्वा तत्र अव्ययानि इति विषये अपि एका कथा अस्ति, तां कथाम् अद्य पठामः. तत्र अस्तु, प्रथमतया पुनःस्मरणार्थं तत्र पश्यामः. तत्र अरुणा भगिनी नमस्कारः.
नमस्ते महोदय.
नमस्कारः भगिनी. अस्तु, तत्र देवः अस्ति चेत् तत्र तत्र प्रथमविभक्ति अपि चतुर्थीविभक्तिरूपाणि तत्र उमा भगिनी वदति वा देवः शब्दस्य प्रथमविभक्तिरूपम् अपि चतुर्थीविभक्तिरूपम्?
देवः, देवौ, देवाः. तदनन्तरं देवाय, देवाभ्यां, देवेभ्यः.
हा, अकारे तत्र ए अन्ते भवति, देवेभ्यः इति भवति. समीचीनं भगिनि.
पुटक्रमाङ्कः किम् अस्ति अस्माकं?
तत्र चतुर्थीविभक्तिः अस्ति, तत्र एतद् रूपमस्ति पेज् 148 मध्ये. 148 मध्ये अस्ति. तदनन्तरं वयं पेज् 155 तदनन्तरं तदनन्तरं तत् करणीयमस्ति, न कृतवन्तः, तत् कुर्मः. किन्तु इदानीं 148.
ओके,
अस्तु. तत्र बालचेतनी महोदय, तत्र केशवः रूपं किं भवति?
केशवाभ्याम्
अपि बहुवचने देवाय, देवाभ्यां, देवेभ्यः. इदानीं केशवः. केशवेभ्यः. समीचीनम्. अस्तु, अरुणा भगिनी, तत्र माधवः इति
माधवः प्रथमविभक्ति माधवः, माधवौ, माधवाः. चतुर्थी माधवाय, माधवाभ्यः, माधवेभ्यः.
माधवेभ्यः. समीचीनं. रघुपतिमहोदय, तत्र आञ्जनेयः.
आञ्जनेयः, आञ्जनेयः, आञ्जनेयौ, आञ्जनेयः, आञ्जनेयाय, आञ्जनेय, आञ्जनेयाभ्याम्, आञ्जनेभ्यः.
किञ्चित् क्लिष्टं, तत्र यकारः पूर्वमपि अस्ति खलु. आञ्जनेयेभ्यः. अस्तु, समीचीनं महोदय. अन्य कोऽपि अस्ति वक्तुम् इच्छति वा परिचयं कृत्वा? अस्तु अस्तु, तर्हि उमा भगिनी इदानीं तत्र लता इति रूपं स्त्रीलिङ्गे प्रथमा अपि चतुर्थी.
ओके, लता, लते, लताः प्रथमा. लतायै, लताभ्यां, लताभ्यः चतुर्थी. अहं पुस्तकं दृष्ट्वा वदामि.
तत्र चिन्ता मास्तु भगिनि, चिन्ता मास्तु, तत्र कोऽपि दोषः एव नास्ति. अस्तु, चिन्ता मास्तु भगिनि. अस्तु, तत्र किं तदनन्तरं भानुचेतनी महोदय, तत्र लता इति अस्ति, इदानीं देवता इति?
देवता, देवतायै, देवताभ्यां, देवताभ्यः.
देवताभ्यः. समीचीनम्. अस्तु, अरुणा भगिनी इदानीं वीणा इति?
वीणा, वीणे, वीणाः, वीणै,
वीणायै, वीणायै,
वीणायै, वीणाभ्यां, वीणे, वीणाभ्यः.
वीणाभ्यः वीणाभ्यः समीचीनं भवति. हा इदानीं केवलम् ईकारान्त स्त्रीलिङ्गं तदेकवारं कुर्मः तत्र. ओ अस्तु रघुपतिमहोदय, हा भवानपि एकवारं तत्र लता उत्पीठिका रघुपतिमहोदय रघुपतिमहोदय अस्तु अस्तु. इदानीं तर्हि उमा भगिनी तत्र इदानीम् ईकारान्त देवी इति
देवी देवी देव्यौ देव्यः ओके दट् केम् करेक्ट्. तदनन्तरं देव्यै देवीभ्यां देवीभ्यः.
हा समीचीनं भगिनि, हा समीचीनम् अस्तु. अस्तु अस्तु महोदय अस्तु. इदानीं रघुपतिमहोदय भवान् एव वदतु तत्र पार्वती इति प्रथमा अपि
पार्वती पार्वती पार्वत्यौ पार्वत्याः
पार्वत्यः पार्वत्यः
पार्वत्यः सोरि पार्वत्यः
पार्वत्यः
पार्वत्यै पार्वतीभ्यां पार्वतीभ्यः.
हा पार्वतीभ्यः समीचीनं, हा समीचीनं महोदय. वनचेतन महोदय इदानीं तत्र सरस्वती इति
महोदय सरस्वत्यै
प्रथमतया प्रथमाविभक्तिरूपम्
सरस्वती
तत्र प्रथमाविभक्तिरूपं किम् अस्ति महोदय? नदी नद्यौ नद्यः
नदी सरस्वती सरस्वत्यौ
सरस्वत्यः. इदानीं चतुर्थी विभक्ति
सरस्वत्यै सरस्वतीभ्यां सरस्वतीभ्यः.
हा समीचीनं महोदय अस्तु. इदानीम् अरुणा भगिनी सुन्दरी इति
सुन्दरी सुन्दर्यौ सुन्दर्यः सुन्दर्यै सुन्दरीभ्यां सुन्दरीभ्यः.
हा समीचीनम् अस्तु अस्तु. तर्हि तत्र किञ्चित् पुनस्मरणं जातम् अपि रूपाणि तत्र पुटसङ्ख्या 148 149 150 मध्ये दत्तानि सन्ति. तद्दृष्ट्वा तानि दृष्ट्वा वयं वक्तुं शक्नुमः. इदानीं चतुर्थी विभक्तेः प्रयोगाः तस्मिन् विषये वयं किञ्चित् कृतवन्तः किन्तु किञ्चित् अपि न कृतवन्तः. तत्र पुटसङ्ख्या 154 अपि 155 तद् न कृतवन्तः इति मन्ये. तद् शीघ्रमेव समापयामः. अस्तु तर्हि तत्र अरुणा भगिनी भवती एव तत्र आरम्भं करोति वा तत्र 154?
आं महोदय. उच्चैः पठत जानीत च कृष्णाय नमः.
नमः
प्रयोगे चतुर्थी. गङ्गायै नमः
लक्ष्म्यै नमः लक्ष्म्यै नमः लक्ष्म्यै नमः लक्ष्म्यै यकारः अस्ति
लक्ष्म्यै नमः
विष्णवे नमः. हा तत्र किमर्थं विष्णवे इति अस्ति, किमर्थं विष्णाय इति नास्ति?
गुरुशब्द
हा उकारान्तपदम् अस्ति इति कृत्वा समीचीनं भगिनि. हा विष्णवे नमः अस्ति. अस्तु भगिनि. हा तत्र सप्तम अभ्यासः तम् आरम्भं करोतु.
यतो उदाहरणं रिक्तस्थानानि पूरयत. उदाहरणं कविः कवये नमः कविः प्रातिपदिकं कवये नमः पार्थसारथिः पार्थसारथयः नमः.
हा पार्थसारथये नमः समीचीनं भगिनि. हा अस्तु उमा भगिनि अग्रे
अग्रे मनुः
देवर्षिः
देवर्षये नमः
देवर्षये नमः. इकारान्त तदपि कविशब्दवत् एव अस्ति. देवर्षये नमः. समीचीनं भगिनि. अस्तु, बाणचतनि महोदय, मनुः इति
महोदय शब्दः मनवे
मनवे नमः
मनवे नमः.
समीचीनं
मनवे प्राह.
हा समीचीनं महोदय. हा अस्तु, रघुपति महोदय पृथिवी इति समीचीनं महोदय. हा अरुणा भगिनी अग्रे.
महोदय सूर्यकुमारी अस्ति.
हा सूर्यकुमारी भगिनी नमस्कारः. न उक्तवती एतावत्. हा अस्तु, हा अरुणा भगिनी वदति, तदनन्तरं भवती वदतु. अरुणा भगिनी
भवान्
इति भवान् इति
भवान् भवत्या.
हा न न भगिनि, तत्र किञ्चित् तत्र भवान् इति शब्दः भवत् शब्दः अस्ति. तत्र रूपं पे 201 मध्ये दत्तमस्ति. तत्र अन्तिमं तदेव अस्ति भगिनि, कोष्टकं 201 भवते इति भवति.
भवते भवद्भ्यः
भवते भवद्भ्यां भवद्भ्यः. तत्र अतः भवान् किं भवति? भवते
भवते भवद्भ्यां भवद्भ्यः.
हा किन्तु अत्र कवि अस्ति चेत् कवये नमः, अतः भवान् अस्ति चेत्
भवते
भवते नमः भवते नमः. इदानीं भगवान् इति शब्दस्य चतुर्थीविभक्ति किं भवति?
भगवते.
हा अतः एव प्रसिद्धश्लोकः अस्ति खलु, भगवते वासुदेवाय इति. वासुदेवः वासुदेवाय, किन्तु भगवान् किं भवति? भगवते इति भवति. हा भगवते, तत्र भगवते इति सप्तमी नास्ति. हा भगवते इत्युक्ते चतुर्थी एव, वासुदेवाय अपि चतुर्थी. नमः इति. समीचीनं भगिनि. हा इदानीं सूर्यकुमारी भगिनी वदतु, धेनुः इति. धेनवे नमः. हा तत्र विकल्पः अस्ति वा धेनुः इति शब्दे? हा धेन्वै नमः अथवा धेनवे नमः, मतिशब्दन धेनुशब्द तदेव अस्ति. अस्तु, हा तत्र उकारान्त हा उकारान्त स्त्रीलिङ्गपदम् अस्ति इति कृत्वा तत्र रूपद्वयं भवति. हा समीचीनं भगिनि. हा अस्तु, अग्रे उमा भगिनि. देवता
आकारान्त अस्ति, देवतायै नमः.
हा समीचीनं भगिनि, देवतायै नमः. समीचीनं. हा इदानीं तत्र भानुचितनी महोदय.
महोदय त्रष्टा.
हा
आकारान्त पदमिति मन्ये महोदय.
त्रष्टृ. हा ऋकारन्त अस्ति महोदय. कर्ता कर्त्रे स्रष्ट्रे स्रष्ट्रे नमः. समीचीनं महोदय. हा अस्तु, अरुणा भगिनि.
धाता धातृप्रातिपदिकं धात्रे धातृभ्यां धातृभ्यः.
अतः अत्र किं भवति?
धातृ प्रातिपदिकं धात्रे.
हा अत्र केवलम् एकवचनमेव आवश्यकम्, अतः रूपं किं भवति? धात्रे
नमः. धात्रे नमः.
भवती चतुर्थीविभक्तिरूपाणि सर्वम् उक्तवती, किन्तु अत्र केवलं प्रथम एकवचनम् एव आवश्यकम् इति कृत्वा. हा तत्र धात्रे नमः. धात्रे नमः. समीचीनं भगिनि. अस्तु, रघुपति महोदय अग्रे.
मूर्तिः 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 मूर्तये नमः पुल्लिङ्गे
मूर्तये या न जानीमः तत्र विकल्पः आसीत् इति चिन्तितवन्तः खलु
मूर्त्या इति भवति
वा मूर्तये तु समीचीनम् अस्ति महोदय तत्र हरये यदि पुल्लिङ्गे अथवा स्त्रीलिङ्गे द्वयमपि साधु एव मूर्तये इति अस्तु अग्रे तत्र सूर्यकुमारी भगिनी
शब्दः पुल्लिङ्ग वा स्त्रीलिङ्ग
हा तत्र
द्वयमपि अस्ति महोदय
उमा भगिनि तत्र गतवर्गे किञ्चित् चर्चा अभवत् तत्र पुस्तके स्त्रीलिङ्गरूपमेव दत्तमस्ति पुटसङ्ख्या 150 मध्ये किन्तु पुल्लिङ्गरूपमपि अस्ति इति केवलं स्त्रीलिङ्गे इति नास्ति तत्र पुल्लिङ्गरूपं स्त्रीलिङ्गरूपं समानमेव इति अतः तत्र मूर्तये इति वदामश्चेत् दोषः नास्ति हरये नमः अथवा मूर्तिः इति तत्र स्त्रीलिङ्गमस्ति चेत् अपि तद् मतिशब्दवत् अस्ति तत्र मतये इति रूपमस्ति अतः मूर्तये नमः अतः दोषः नास्ति
परन्तु इन् ओरिजिनल् फार्म् मूर्ति पुल्लिङ्ग अथवा स्त्रीलिङ्ग
न रूपद्वयम् अस्ति इति मन्ये मूर्तिः
रूपद्वयम् अस्ति
न चतुर्थी विभक्तेः रूपस्य चर्चा नास्ति इदानीं मूर्तिः इति मूर्ति इति शब्दः ह्रस्व इकारन्तमूर्तिशब्दः तदेव शब्दः पुल्लिङ्गे अपि स्त्रीलिङ्गे एव शब्दः इति वयं इति चर्चा किमपि चर्चा अभवत् इति मन्ये रघुपति महोदय
अस्ति अस्ति स्पोकन् संस्कृत मध्येपि अस्ति मूर्ति द्वयमपि अस्ति
हा अतः तत्र पुल्लिङ्गरूपम् अपि कर्तुं शक्नुमः स्त्रीलिङ्गरूपम् अपि कर्तुं शक्नुमः किन्तु चतुर्थी विभक्ति विषये यदि एकवचने हा मूर्ते इति रूपं स्वीकुर्मश्चेत् तद् पुल्लिङ्गं भवतु स्त्रीलिङ्गं भवतु समानं रूपमेव अतः अस्तु अस्तु अग्रे उमा भगिनी भवती एव तत्र प्रजापतिः
प्रजापतिः प्रजापतये मूर्तये प्रजापतये नमः
हा अस्तु अत्र हा अत्र रघुपतिमहोदय
इदानीं
हा सत्यं सत्यं भगिनि हा रघुपतिमहोदय इदानीम् अवकाशः समीचीना इति मन्ये तत्र चतुर्थीविभक्तिविषये पतिशब्दे शब्दविषये
भवान् पत्ये भवति इति चतुर्थी विभक्ति बट् परन्तु यदा समासः भवति तत्र मुनिशब्दवत् मुनये इति पतये इति भवति इति दत्तमस्ति
मुनिशब्दवत् भवति पुल्लिङ्गे
मुनये
अतः प्रजापतये इति रूपं समीचीनम् अस्ति किन्तु तत्र रामचन्द्राय रामभद्राय सीतापतये इति रूपम् अस्ति
सीतायाः पतये नमः इति अस्ति तत्र पत्ये भवितुं भवेत् परन्तु पतये अस्ति परन्तु आशप्रयोगः यथा ऋषिमुनिना प्रयोगं कुर्वन्ति ते एतादृशी प्रयोगः कृता अस्ति प्रयोगः अतः तत् साधु एव इति परन्तु अस्माकं लौकिकव्याकरणे पत्ये एव भवति पतये न भवति इति
वार्ता अस्तु महोदय बहु समीचीनम् अस्ति तत्र अतः तत्र पतिः अस्ति चेत् पतिः अस्ति चेत्
पत्ये पत्ये एव भवति
पत्यै हा किन्तु प्रजापतये इति अत्र साधु अस्ति हा अस्तु समीचीनं हा सूर्यकुमारी भगिनी रघुपतिमहोदय धन्यवादः हा
माता मात्रे नमः
हा मात्रे नमः समीचीनं भगिनि अस्तु हा मात्रे नमः समीचीनम् अस्तु इदानीम् उमा भगिनी अग्रिमम् आरम्भं करोति वा रोचते इति उमा भगिनि न श्रूयते भगिनि अस्तु सूर्यकुमारी भगिनी अग्रिमम् आरम्भं करोति वा
आम् महोदय कोष्ठकाधारेण यतो तदा
यतोदाहरणं
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 यतोदाहरणं वाक्यानि लिखत
हा तत्र यथा उदाहरणं यतोदाहरणम् इति
यतोदाहरणं वाक्यानि लिखत रोचते प्रयोगे चतुर्थी कृष्णः भक्तये रोचते
न न न तत्र उदाहरणमस्ति पठतु तत्र वाक्यमस्ति कृष्णाय भक्तिः
रोचते
हा तत्र आङ्ग्लभाषायां वदतु अर्थः कः रोचते इत्युक्ते
रोचते
लैक्स् कृष्ण लैक्स् भक्ति किन्तु तत्र कृष्ण भक्तिं रोचते इति न वदामः कृष्णाय भक्तिः रोचते 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 इति अकर्मकपदमस्ति तत्र भक्तिः इति कर्तृपदम् अस्ति तत्र भक्तिः कर्मपदं नास्ति भक्तिः इति कर्तृपदमस्ति भक्तिः रोचते कस्मै रोचते कृष्णाय भक्तिः रोचते इति
क्वश्चन् इन् इङ्ग्लिश् कृष्णा इस् द कर्ता इज़न्ट् इट्
अत्र कर्ता नास्ति कर्तृपदम् अस्ति चेत् सर्वदा प्रथमविभक्तिरूपं भवति तत्र तत्र सत्यं भगिनि एकनिमिषः तत्र चिन्तयतु तत्र संस्कृतभाषा अन्या भाषा अस्ति आङ्ग्लभाषा अन्या भाषा अस्ति व्याकरणम् अपि समानं नास्ति अतः तत्र यया रीत्या वयं संस्कृते वदामः तया रीत्या एव वयम् आङ्ग्लभाषायां न वदामः अपि यया रीत्या वयम् आङ्ग्लभाषायां वदामः तया रीत्या वयं संस्कृतेन न वदामः अतः अत्र चिन्तनम् एव किञ्चित् भिन्नः अस्ति अतः एव सर्वदा यदि वयं संस्कृतेन वक्तुम् इच्छामः तत्र आङ्ग्लभाषायां प्रथमतया मनसि अस्तु एतद् वाक्यम् अहं वक्तुम् इच्छामि इति चिन्तयित्वा तस्य अनन्तरं किं किं करणीयम् इति किमपि तादृशचिन्तनं भवति चेत् तत्र वाक्यं समीचीनं न भवति
संस्कृतभाषायां भक्तिकर्ता
अत्र रोचते इति अस्ति क्रियापदं क्रियापदस्य कर्तृपदं भवेत् खलु किम् अस्ति कर्तृपदं भक्तिः रोचते किन्तु कस्मै रोचते कस्मै तु तत्र अहम् अतः तत्र कृष्णाय इति चतुर्थी विभक्तौ अस्ति अतः तत् कर्तृपदं नास्ति भक्तिः रोचते कस्मै रोचते कृष्णाय रोचते तद् किञ्चित् कर्मणि प्रयोगवत् अस्ति तत्र तादृश किं तत्र कर्मणि प्रयोगे तु तृतीया विभक्ति भवति अत्र चतुर्थी किन्तु तादृशचिन्तनम् इति मन्ये अस्तु अस्तु इदानीं तत्र भगिनी सूर्यकुमारी
भगिनी कृष्णः भक्तिम् इच्छति what's the difference between rochate and ichati in that case
एतदेव प्रश्नः, सः एव प्रश्नः संस्कृतेन पृच्छतु.
ओके, ऐल् ट्रै.
कः भेदः, कः भेदः
क्रियापदम्?
तत्र वदतु, तत्र इच्छति इति अस्ति,
इच्छति रोचते समानार्थक्रियापदानि.
सत्यं.
अतः अहं परिवर्तनं करोमि. कृष्णः भक्तिम् इच्छति.
तत्र इच्छति तु इच्छति केवलं, किन्तु इच्छति केवलं किं लैक्स् इति नास्ति. तत्र तत्र इच्छति मम समीपे किं विद्या नास्ति, अहं विद्याम् इच्छामि इत्युक्ते तत्र मह्यं विद्या रोचते इति अर्थः नास्ति खलु.
ओके,
तत्र किञ्चित् भेदः अस्ति. सत्यम् एकं, तद् सः एकः विषयः. अन्यविषयः अस्ति तत्र क्रियापदम्, एकं क्रियापदस्य स्थाने अन्यत् क्रियापदं स्थापयामश्चेत् तत्र व्याकरणभेदः भवति, अर्थसमानः भवति किन्तु व्याकरणभेदः भवितुम् अर्हति खलु. तत्र एतद् भवितुम् अर्हति, एक क्रियापदद्वयमस्ति, एकं सकर्मकः अपि अन्यत् अकर्मकः, अत्र तत्र किं करणीयं खलु. अतः तत्र अर्थसमानः अस्ति किन्तु रोचते इति स्थाने एषः नियमः अस्ति. रोचते इति यदा प्रयोगं कर्तुम् इच्छामः, तस्य प्रयोगं कर्तुम् इच्छामः तत्र सर्वदा चतुर्थीविभक्तिरूपमेव भवति इति. किन्तु इच्छति इति भवति चेत् कृष्णः भक्तिम् इच्छति, तत् सत्यं. किन्तु रोचते इति वक्तुम् इच्छामः चेत् कृष्णाय इति वक्तव्यं, तावदेव. अस्तु, सूर्यकुमारी भगिनी इदानीं रूप प्रथमं करोतु. तत्र ऋषिकेशः इति,
ऋषिकेशः पञ्चजन्यः. ऋषिकेशाय पञ्चजन्यं रोचते.
तत्र पञ्चजन्यः इति दत्तमस्ति.
पञ्चजन्यः,
पञ्चजन्यः रोचते इति
समीचीनम्. इदं वाक्यं कर्मणि प्रयोगः?
न, कर्मणि प्रयोगः नास्ति. एतत् विशेषप्रयोगः अस्ति, विशेषप्रयोगः अस्ति केवलं रोचते इति एव. अन्यत् किमपि क्रियापदं तत्र स्थापितुं शक्नुमः इति नास्ति, केवलं रोचते. किन्तु कर्मणि प्रयोगे बहु किमपि कर्तुं शक्नुमः तत्र.
रोचते
विशेषक्रियापदम्.
ओके,
रोचते अस्ति चेत् तत्र चतुर्थीविभक्तिरूपं भवति इति. सः एव अत्र विषयः. रोचति क्रियापदे पदस्य उपयोगं सन्दर्भे चतुर्थीविभक्तिरूपम् आवश्यकम् इति.
रोचते
अकर्मकक्रियापदम् अस्ति, तत्र कर्मपदं नास्ति. अस्तु,
तदेव चतुर्थीविभक्तिः.
अत्र चतुर्थीविभक्तिः एव भवति तत्र. यत् रोचते तद् प्रथमाविभक्तिरूपे भवति, यस्मै रोचते सः अथवा सा चतुर्थीविभक्तिरूपं रूपेण भवति तत्र. अस्तु, अनुचितनि महोदय. धनञ्जयः विजयः,
धनञ्जयाय विजयः रोचते.
समीचीनं महोदय. रघुपति महोदय अग्रे.
महोदय ड्रैविङ्ग् कुर्वन्,
अस्तु महोदय, अस्तु. अरुणा भगिनी अग्रे.
प्रकृतिः पुरुषः, प्रकृतेः प्रकृतेः पुरुषः रोचते अवा प्रकृतै पुरुषः रोचते
प्रकृतिः स्त्रीलिङ्गशब्दं समीचीनं भगिनि स्त्रीलिङ्गशब्दम् अतः तत्र रूपं किं भवति प्रकृत्यै समीचीनं भगिनि हा समीचीनं भगिनि प्रकृत्यै पुरुषः रोचते रूपद्वयं समीचीनं भगिनि हा अस्तु अग्रे उमा भगिनि
श्रद्धा सत्कार्यं श्रद्धायै सत्कार्यं रोचते
हा समीचीनं भगिनि हा सूर्यकुमारी भगिनि
स्थितिः श्रमः सिद्धये सिद्ध्यै श्रमः रोचते
श्रमः रोचते समीचीनं हा बालचितनि महोदय
त्वं
त्वम् इति इत्युक्ते तुभ्यम् अथवा ते
हा तुभ्यं तुभ्यं किं रोचते
हा इति प्रश्नः तुभ्यं किं रोचते अथवा ते किं रोचते इति समीचीनं महोदय
धन्यवादः
अरुणा भगिनि अग्रे
साधुः सम्बुद्धिः
समबुद्धिः
समबुद्धिः साध्वे समबुद्धिः रोचते
साधुः तत् गुरुशब्दवत् अस्ति
गुरवे नमः
साधवे साधवे
समबुद्धिः रोचते
साधवे समबुद्धिः रोचते समीचीनं भगिनि हा अस्तु उमा भगिनि अग्रे
अहं अहं
मह्यं तत्र त्वं तं मह्यं मह्यं सत्यं भगिनि मह्यं हा
मह्यं समर्पणं रोचते
हा तत्र मह्यं तत्र मे इति रूपमपि दत्तमस्ति हा मह्यम् अथवा मे
अथवा मे समर्पणं रोचते
हा तत्र मे इति देहि मे इति अस्ति खलु देहि मे सर्वत्र शृण्मः खलु देहि मे बुद्धि देहि मे आशीर्वादं हा देहि मे इति चतुर्थविभक्तिरूपं हा अथवा मह्यं समीचीनं भगिनि अस्तु हा सूर्यकुमारी भगिनि
संस्कृतिः अनुशासनम्
अनुशासनं
संस्कृते अनुशासनं रोचते
संस्कृतिः हा संस्कृतिः स्त्रीलिङ्गपदम् अस्ति इति वा हा स्त्रीलिङ्गपदम् इति मन्ये तत्र संस्कृतिः
संस्कृतिः
स्त्रीलिङ्गपदम् अतिशब्दवत् इति मन्ये पश्यन्तु तत्र हा संस्कृत्यै अथवा संस्कृतये
संस्कृतये संस्कृतये अनुशासनं रोचते
संस्कृतिः
अनुशासनं रोचते
समीचीनं भगिनि हा अस्तु अग्रे बालचितनि महोदय वयं भारतं मह्यम् एकवचने तिन्त्रु वयम् अस्ति अत्र हा तत्र अहम् आवां वयं माम् आवाम् अस्मान् मया आवाभ्याम् अस्माभिः मह्यम् आवाभ्याम् अस्मभ्यम् चिन्ता मास्तु महोदय चिन्ता मास्तु हा अतः वयम् अपि भारतम् इदानीम् अस्मभ्यम्
अस्मभ्यं भारतं रोचते
हा समीचीनं महोदय हा तावदेव अस्तु अरुणा भगिनी सर्वे अपि गीता
सर्वे
तत्र पेज् 199 मध्ये दत्तमस्ति भगिनि सर्वशब्दः
सर्वस्थै सर्वस्मय किं पुटं महोदय
199 भगिनि
सर्वस्यै
न न न एत तत्र वर्गे सर्वदा एतत् वदामः सर्वेभ्यो नमः इति
सर्वस्मै
इति एकवचने भवति किन्तु तत्र सर्वः सर्वस्मै
सर्वेभ्यः
इति
रोचते
हा सर्वेभ्यः गीता रोचते अतः एव वयं सर्वेभ्यः सर्वेभ्यो नमः इति वदामः
श्रीलिङ्गे सर्वाभ्यः
हा श्रीलिङ्गे सर्वाभ्यः समीचीनं किन्तु अत्र सर्वे इति उक्तमस्ति तत् पुल्लिङ्ग वा अथवा स्त्रीलिङ्गं वा
पुल्लिङ्गबहुवचनं
हा पुल्लिङ्गबहुवचनम् अतः एव सर्वेभ्यः इति समीचीनम् अस्तु तत्र एतत् कृतवन्तः इदानीं तत्र किञ्चित् तत्र
द्विवचनं
न द्विवचनं नास्ति द्विवचनं नास्ति तत्र पुल्लिङ्गे
द्विवचनं
न तत्र पुल्लिङ्गे रूपमस्ति सर्वः सर्वौ सर्वे पुल्लिङ्गे स्त्रीलिङ्गे अस्ति सर्वा सर्वौ सर्वाः
स्त्रीलिङ्गे सर्वा सर्वे सर्वाः
न इति चिन्तयामि न सर्वा सर्वा किञ्चित् विशेषशब्दः अस्ति केवलं लता लते लताः तादृशः नास्ति भगिनि अकारान्तस्त्रीलिङ्ग सर्वा शब्दः किञ्चित् भिन्नम् अस्ति लता शब्दवत् नास्ति पुटसङ्ख्या 199 पश्यतु तत्र तत्र साधारण अथवा सामान्य आकारान्तपदम् अस्ति अपि विशेष आकारान्तपदम् अस्ति तत्र सर्वः इति एतदपि चिन्तनं कर्तुं शक्नुमः खलु सर्वः इति अकारान्तपुल्लिङ्गशब्द देवशब्दवत् अस्ति इति किन्तु तादृशरूपं नास्ति सर्वः इति अकारान्तपुल्लिङ्गशब्दः सूर्यकुमारी भगिनी सर्वः इति कीदृशपदम् अस्ति सर्वः देवशब्दवत् अस्ति वा अकारान्तपदम् अस्ति वा सर्वः अस्तु देवः प्रथमविभक्तिरूपं किं भवति देवः
देवो देवाः
हा अस्तु सर्वशब्द प्रथमविभक्तिरूपं किम् अस्ति
सर्वः सर्वौ सर्वे
हा सर्वाः नास्ति
सः तौ ते
हा हा सत्यं किन्तु अकारान्त देवशब्दवत् सर्वशब्दः नास्ति तादृशमेव सर्वा इति शब्दः लताशब्द आकारान्त लताशब्दवत् नास्ति
महोदय श्रीलिङ्गे सर्वा सर्वे सर्वाः
न सर्वे नास्ति अत्र सर्वौ इति अस्ति
गीतसोपानं पुस्तके 199 पुटे स्त्रीलिङ्ग आकारान्त स्त्रीलिङ्ग सर्वाशब्दः द्विवचने सर्वे
एकवारं द्रष्टव्यम् अस्ति भगिनि अस्तु एकवारं दृष्ट्वा पश्यामः तत्र
सर्वमस्ति महोदय
हा इति मम चिन्तनमपि अस्ति एकवारं पश्यामः भगिनि तत्र
सर्वमस्ति सर्व एव अस्ति अत्र मम पुस्तके सर्वा सर्वौ सर्वाः हे सर्वौ हे सर्वाः सर्वां सर्वौ सर्वाः इति अस्ति
अस्तु भगिनि एकवारं पश्यामः अस्तु तत्र किं ओ अस्तु नूतनमुद्रणे सर्वे इति दत्तमस्ति वा अस्तु
नो महोदय द्विवचन प्रथम द्विवचन श्रीलिङ्गशब्द सर्वे
सर्वे
अस्तु 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 मम पुस्तके सर्वौ इति अस्ति मम पुस्तके सर्वौ इति अस्ति किन्तु प्रायशः तद् धन्यवादः भगिनी, सूर्यकुमारी भगिनी धन्यवादः. तत्र प्रायशः मम पुस्तके तु सर्वौ इति एव दत्तमस्ति, किन्तु इदानीं तत्र आन्लैन् एडिशन् पश्यामि, तत्र तु सर्वे एव दत्तमस्ति, तदेव पुटसङ्ख्या, किन्तु सर्वे इति दत्तमस्ति. प्रायशः मम पुस्तके यदस्ति पूर्वतन एडिशन्
पूर्वतन एडिशन् करेक्षन् शीट् विच् वास् सर्क्युलेटेड्.
ओ अस्तु भगिनि, हा अस्तु. अतः सूर्यकुमारी भगिनी धन्यवादः. अहं चिन्तितवान् सर्वे सर्वौ इति. धन्यवादः भगिनी, सर्वे इति अपि स्त्रीलिङ्गे भवितुम् अर्हति. अस्तु भगिनी धन्यवादः. अस्तु, अतः तत्र सर्वे इति स्त्रीलिङ्गे अस्ति चेत् रूपं किं भवति? हा अतः तत्र वाक्यं किं भवति? न न न नमः न इदानीं, तत्र रोचते इति. हा हा सर्वाभ्यां गीता रोचते इति, समीचीनं भगिनि. हा अस्तु, हा भगिनि भवती एव तत्र अधोभागे अवधेयम् इति अस्ति, तद् एकवारं पठतु भगिनि.
महोदय, I just got confirmation. Inflected forms इति एक सैट् अस्ति, तत्र सर्वा सर्वे सर्वाः इति एव दत्तमस्ति.
अस्तु भगिनि, तत्र किन्तु तत्र प्रमाणं किं, तत्र तत् समीचीनम् इति तत्र वेब्सैट् मध्ये जालपुटे यत् लभ्यते तद् कथं वक्तुं शक्नुमः?
पुस्तकमस्ति शब्दमञ्जरी,
अस्तु
शब्दमञ्जरी, तत्र अपि सर्वा सर्व सर्वे सर्वाः एव
इति अस्ति. समीचीनं भगिनि, अस्तु धन्यवादः. हा धन्यवादः भगिनि, अस्तु 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 समीचीनम्. अतः सर्व किन्तु तत्र प्रायशः तत्र विशेषपदं भवत् सर्वः शब्दः लता शब्दवत् नास्ति इति मन्ये, तत्र तत्र कुत्र भेदः अस्ति इति?
महोदय महोदय, अत्र एतत् सर्व सः सा तदेव रूपं प्राप्नोति. सः इत्यस्य सः तौ अस्ति, सा ते ताः इति भवति, तत्र अपि तदेव भवति. यत्र सा स्त्रीलिङ्ग अस्ति सर्व सर्व सर्वे, सः अपि अस्ति सर्व अपि तदेव रूपं प्राप्नोति. यत् सः तस्मै अस्ति, यत्र सर्व सा इति भवति
अस्तु अस्तु भगिनि अस्तु तदेव अस्तु अस्तु इदानीं तत्र अस्तु तत्र अस्तु सत्यं महोदय, इदानीं धन्यवादः. इदानीं तत्र एतत् वयं द्रष्टुं शक्नुमः, तत्र किं लताशब्दे तत्र सर्वापि आकारान्तस्त्रीलिङ्गपदम् अस्ति, लता अपि सर्वापि आकारान्तस्त्रीलिङ्गपदं, लता अपि आकारान्तस्त्रीलिङ्गपदं, किन्तु तयोः विभक्ति समानं नास्ति. तत्र कुत्र भेदः इत्युक्ते, तत्र लता अस्ति चेत् चतुर्थी विभक्तिरूपं किं भवति? लतायै इति भवति. किन्तु अत्र सर्वायै इति नास्ति, सर्वस्ये इति अस्ति, सर्वस्यै इति अस्ति. अतः तत्र सर्वस्यै, तस्यै इति सर्वस्यै, हा तस्यै इति तावत् सर्वस्यै. अपि तत्र लतायाः इति रूपं भवति न, पञ्चमी अपि षष्ठी मध्ये एकवचने लतायाः, किन्तु तत्र सर्वस्याः सर्वायाः इति नास्ति, सर्वस्याः सर्वस्याः, अपि लतायाम् इति स्थाने सर्वस्याम् इति अस्ति. अतः तत्र भेदः अस्ति खलु, हा अतः सर्वा इति शब्दः लता इति शब्दवत् नास्ति. हा तावदेव मम मनसि आसीत्, सत् नास्तु, किन्तु यद् इदानीम् अस्ति तत्र सर्वे इति रूपम् अस्ति, तत्तु सत्यमेव. अस्तु, साते ताः इति तादृशरूपम् अस्ति इति समीचीनम्. अस्तु अस्तु, सूर्यकुमारी भगिनी अधोभागे तत्र अवधेयम् एकवारं पठति वा?
अवधेयं नमः इति शब्दस्य योगः यत्र तस्य शब्दस्य चतुर्थी विभक्तिः भवति, यथा हरये नमः, रोचते इत्यस्य प्रयोगे यस्मै रोचते तस्य चित्तस्य विभक्तिः भवति, यथा हरये भक्तिः रोचते.
हा इति समीचीनं भगिनि. अस्तु, इदानीं तत्र
नमः अव्ययपदं महोदय, विशेषणपदं
द्रष्टव्यम्. अहं चिन्तयामि नमः इति प्रायशः हरये नमः इति, नमः इति अव्ययम् इति,
नमः इट् इस् अव्ययम्. अहम् अव्ययस्य एकं वाट्सप्
अस्तु भगिनि, अस्तु अस्तु भगिनि, धन्यवादः. किन्तु तद् अव्ययमेव. तत्र किम् अस्ति भगिनि, केन माध्यमेन भवती वक्तुं शक्नोति? न न, उमा भगिनि, उमा भगिनि, केन माध्यमेन भवती जानाति एतत् अव्ययमस्ति इति?
एकतत्तु अहं वाट्सप् मार्गेण प्राप्तवती, तदनन्तरं स्वयमेव ऐ क्रास् चेक्.
अस्तु भगिनि,
नमः इत्युक्ते किम्? एकवचनं, द्विवचनं, बहुवचनं, कुत्रापि तस्य परिवर्तनं न भवति.
हा सत्यं सत्यम्, अतः नमः इति तद् अव्ययम् अस्ति. समीचीनं भगिनि, धन्यवादः. हा धन्यवादः भगिनि, समीचीनं. हा अस्तु, हा अस्तु, तर्हि अग्रे तत्र किं तत्र क्रुध्यति, ईर्ष्यति, दृश्यति, असूयति अपि किमर्थम् इति तत्र कुर्मः वा, अथवा अव्ययमिति विषयं गच्छामः वा, किं चिन्तनम्? तत् कुर्मः वा, अथवा अव्ययम् इति कथां पठामः? कुर्मः, अस्तु 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 अस्तु. तर्हि तत्र भानचित्री महोदय अग्रिमपुटे क्रुध्यति ईर्ष्यति इति पठति वा तत्र?
क्रुध्यति, ईर्ष्यति, द्रुह्यति, असूयति. क्रुध्यति इत्युक्ते कोपः, ईर्ष्यति इत्युक्ते
ईर्ष्या अपि तदेव वा?
द्वेषं
भेदमस्ति महोदय.
दृश्यति, क्रुध्यति, क्रुध्यति इति क्रोधः अस्ति इति, ईर्ष्यति इति केवलं डिस्लैक् इति अस्ति खलु?
न महोदय, जलस्य तत् तद्रूपमपि ईर्षीलिङ्ग् अस्ति, ईलिङ्ग् अस्ति, ईर्षा,
ईर्षा इति अस्तु. अपि तत्र दृश्यति इति किं? द्रोहः, दूषितः, तत्रापि किं दृश्यति?
दृश्यति इस् टु हार्म् सम्बडि आर् गिव् ट्रबल्.
हा ट्रबल्, अस्तु, हा अस्तु 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 अस्तु, दृश्यति. हा
ईर्ष्या इस् एन्वी, हा
अतः, हा अतः असूयति, जलस् एन्वि, एन्वि अस्तु. हा तत्र एन् एन्वि अपि जलस् मध्ये किञ्चित् भेदः अस्ति, अस्तु. तादृश ईर्ष्यति अपि असूयति, अस्तु, किञ्चित् भेदः अस्ति तयोः मध्ये, अस्तु अस्तु. पानचितिन् महोदय, अतः तत्र
महोदय, कः कस्मै क्रुध्यति, ईर्ष्यति, दृह्यति, असूयति इति यथोदाहरणं वदत. कंसः कृष्णः क्रुध्यति, उदाहरणार्थं कंसः कृष्णाय क्रुध्यति, पूतना कृष्णः दृह्यति, पूतना कृष्णाय दृह्यति.
समीचीनं महोदय. तत्र दृह्यति, अस्तु, दृह्यति अपि इष्यति, अस्तु. अग्रे उमा भगिनि,
भिक्षुकः धनिकाय असूयति.
हा भिक्षुकः धनिकाय असु इति समीचीनं
महोदय सम्यक् नास्ति महोदय भिक्षुकाय असूयति
हा तदपि सत्यं महोदय सत्यं हा एतत् साधारणचिन्तनम् अस्ति भिक्षुकः धनिकाय असूयति इति साधारणचिन्तनं किन्तु हा किन्तु वस्तुतः विपरीततया एव समीचीनं सत्यं महोदय
यदा धनिकः भवति तदा एव अहं जानीमः
तत्र किम् आङ्ग्लभाषायां वदन्ति खलु तत्र ग्रीन् इस् ग्रास् इस् ग्रीनर् सत्यं महोदय
एकनिमिषम् इफ् ऐ से भिक्षुकः धनिकाय असूयति अर्थं किं भवति असूया दृष्ट्वा सः असूयति न
हा सत्यं किन्तु बालचैतन्य महोदय वदति विपरीततयापि वस्तुतः तदपि साधु एव धनिकः भिक्षुकाय असूयति मम पार्श्वे धनम् अस्ति किन्तु एषा समस्या अस्ति अन्या समस्या अस्ति अत्र एतत् निद्रा न आगच्छति तत्र दश गृहाणि सन्ति किं करणीयं किं बहु किमपि
दश महिलाः अपि सन्ति
अतः बहु किमपि तत्र भवति किन्तु भिक्षुकस्य जीवनं सरलम् इति तस्य प्रायः चिन्तनम् इति चिन्तयामश्चेत्
इन् दिस् सेण्टेन्स् कंसः कृष्णः क्रुध्यति विपरीतमपि वक्तुं शक्नुमः न
कृष्णस्य तु कृष्णा तु कस्मै अपि न क्रुध्यति
ओके
यदि अन्य कोऽपि आसीत् चेत् वक्तुं शक्नुमः तत्र क्रोधः तु सर्वदा तत्र द्वयोः मध्ये क्रोधः भवति चेत् एकः अन्यम् हा किन्तु कृष्ण इति विषये तु तादृश न भवति खलु अतः किन्तु समीचीनं भगिनि तत्र अन्यत्र भवति एव तत्र विपरीति अपि वक्तुं शक्नुमः अस्तु इदानीं सूर्यकुमारी भगिनि
दुर्जनः सज्जनाः क्रुध्यति
दुर्जनः क्रुध्यति
सज्जना
न देवः देवेभ्यः सर्वः सर्वेभ्यः सज्जनः
सज्जनाः
सज्जनेभ्यः
इदानीं वाक्यं
दुर्जनः सज्जनेभ्यः क्रुध्यति
हा यदा इदा तत्र एकवचने किं भवति सज्जनः आसीत् चेत् किं भवति
सज्जनाय
हा दुर्जनः सज्जनाय क्रुध्यति दुर्जनः सज्जनेभ्यः क्रुध्यति इति समीचीनं भगिनि हा अस्तु अरुण भगिनी अग्रे
कौरवाः पाण्डवाः ईष्यन्ति कौरवाः पाण्डवेभ्यः ईष्यन्ति
ईर्ष्यन्ति समीचीनं भगिनि हा रघुपति महोदय अग्रे
हा महोदय महिषासुरा दुर्गायै द्रुह्यति
हा
दुर्गायै दृश्यति
दुर्गायै दृश्यति समीचीनं हा इदानीं उमा भगिनी
नकुलः सर्पः बहुवचनम् ओके सर्पेभ्यः असूयति
हा नकुलः सर्पेभ्यः असूयति हा एतत् किमर्थम् इति न जानामि कोऽपि जानाति वा
नकुलस्य वाट् इस् इट् मनसि समबडी हस्
एंटर्ड
ओ अत्र नकुलः इति सहदेव नकुलः नास्ति अस्तु मङ्गूस् अस्ति मङ्गूस् अतः अस्तु हा तत्र मम मनसि किञ्चित् भ्रमः आसीत्
नकुलः
श्रूयति इति सम्यक् नास्ति,
नकुलः खादति वा
हा श्रूयति हा दृह्यति प्रायशः खलु तत्र
दृह्यति एव
अस्तु हा हा अस्तु अग्रे बालचित्री महोदय अग्रे
निर्धनाः धनिकेभ्यः ईर्ष्यन्ति
हा किन्तु भवान् किं वक्तुमिच्छति तत्र
बै डैरेक्शन् महोदय
अतः तत् तद्वाक्यमपि वदतु हा
धनिकाः निर्धनेभ्यः ईर्ष्यन्ति
हा समीचीनं महोदय अस्तु धन्यवादः समीचीनं सूर्यकुमारी भगिनी अग्रे
रावणः रामः क्रुध्यति रावणः रामाय क्रुध्यति
हा तत्र विपरीततया वक्तुं शक्नुमः वा
रामः रावणे न
तत्र वाक्यम् अतः स वाक्यं वदतु किं वाक्यं भवति तत्र रामः
रामः रामाय
न न रामः
ओ रामः रावणेन
न रावणेन किमर्थं रावणः रामाय क्रुध्यति किन्तु रामः
रामः विपरीतार्थं रावणे रावणाय
रावणाय किं क्रुध्यति वा सः न क्रुध्यति न क्रुध्यति रावणः रामाय क्रुध्यति किन्तु रामः रावणाय न क्रुध्यति इति अस्तु
मोडर्न् डे रामः क्रुध्यति तु किन्तु
सत्यं सत्यं हा सत्यं
नाम रावणः नास्ति
हा अरुणा भगिनि अन्तिमं तत्र
राक्षसाः देवाः ईष्यन्ति बहुवचनमस्ति राक्षसाः देवेभ्यः ईष्यन्ति
हा अपि विपरीतिः अपि कर्तुं शक्नुमः तत्र देवाः
देवाः राक्षसेभ्यः न ईष्यन्ति
न ईष्यन्ति समीचीनं भगिनि अस्तु अस्तु अग्रे रघुपति महोदय अग्रिमं तत्र अवधेयम् इति एकवारं पठित्वा किमर्थम् इति
अस्तु अवधेयं क्रुध्यति अथवा कुप्यति ईर्ष्यति दृह्यति असूयति इत्येतेषां प्रयोगः यत्र क्रियते तत्र क्रोधादीनां पात्रस्य चतुर्थी विभक्ति भवति यथा रावणः रामाय क्रुध्यति ईर्ष्यति दृह्यति असूयति अत्र क्रोध अथवा ईर्ष्यायाः पात्र यस्य कृते क्रोधः अस्ति तत् पात्र चतुर्थी विभक्तिः भवति इति अस्ति
सत्यं महोदय समीचीनं अग्रे
अग्रे किमर्थं किमर्थम् इति विषये यतोदाहरणं वदत सैनिकाः किमर्थं युद्धं कुर्वन्ति सैनिकाः देशरक्षणाय युद्धं कुर्वन्ति यत्र
किमर्थं भवति
किमर्थम् इति भवति तत्र उत्तरं चतुर्थी विभक्त्याम् एव भवति इति
हा चतुर्थी विभक्तिरूपम् अथवा कर्तुमपि
भवति
अपि तुमुनपि
तुमुनपि भवति अर्हति
तुमुनपि
देशं
अथवा एतदार्थम् एतदार्थम्
एतदर्थं
रक्षणार्थं रक्षणार्थम् इति तदपि भवति किन्तु चतुर्थी अपि भवति
रक्षितुम् अथवा रक्षणाय देशं रक्षितुं तत्र द्वितीया विभक्ति देशं रक्षितुम्
अथवा देशरक्षणार्थं
देशरक्षणार्थं
अस्तु समीचीनं महोदय तत्र प्रथमं कृत्वा
कौरवाः पाण्डवाः किमर्थं कुरुक्षेत्रे समवेताः धर्मयुद्धम् अस्ति अतः कौरवाः पाण्डवाः धर्मयुद्धार्थम् अथवा धर्मयुद्धाय कुरुक्षेत्रे समवेताः
हा समीचीनं महोदय, अस्तु. हा इदानीम् उमा भगिनी.
कृष्णः किमर्थं गीताम् उपदिष्टवान्? कृष्णः उद्बोधनार्थम् अथवा उद्बोधनाय गीताम् उपदिष्टवान्.
हा समीचीनं भगिनी. हा अस्तु, सूर्यकुमारी भगिनी अग्रे.
पर्यटकाः किमर्थं भारतम् आगच्छन्ति? पर्यटकाः ज्ञानार्जनार्थं भारतम् आगच्छन्ति अथवा ज्ञानार्जनाय
भारतम् आगच्छन्ति. समीचीनं भगिनि, अस्तु. बाणचित्रिणी महोदय अग्रे.
भारत महोदय
सर्वे सर्वे इति सर्वे किमर्थं
सर्वे सर्वे किमर्थं योगासनं कुर्वन्ति? सर्वे स्वास्थ्यवर्धनाय योगासनं कुर्वन्ति.
हा समीचीनं महोदय. हा अस्तु, अरुणा भगिनी अग्रे.
भारतीयाः किमर्थं प्रार्थनां कुर्वन्ति? भारतीयाः मानवकल्याणाय प्रार्थनां कुर्वन्ति.
हा समीचीनं भगिनी. हा तत्र सर्वे इति वदामः खलु, सर्वे भवन्तु सुखिनः, केवलम् अहं सुखं. हा हा रघुपति महोदय अग्रे.
हा महोदय, आर्ताः किमर्थं देवं भजन्ति? आर्तिनाश अथवा दुःखवारणाय दुःखवारणम् आर्ताः आर्तिनाशाय अथवा दुःखवारणाय देवं भजन्ति.
हा समीचीनं महोदय. उमा भगिनी अन्तिमम्.
अन्तिमं, मुनयः किमर्थं तपः कुर्वन्ति? हा वेरि ईजि, मोक्षाय तपः कुर्वन्ति.
समीचीनं भगिनि, अस्तु.
ओके, मम प्रश्नमेकम् अस्ति.
प्रश्नः
थर्ड् वाक्यं, पर्यटकाः किमर्थं भारतम् आगच्छन्ति, तत्र ज्ञानार्जनं दत्तमस्ति. ज्ञानार्जनं ज्ञानाय, हा ज्ञानार्जनाय
ज्ञानार्जनाय ज्ञानस्य न न तत्र ज्ञानस्य आर्जनं ज्ञानार्जनम् अर्निङ्ग्
लर्निङ्ग्
ज्ञानं
ज्ञानार्थमपि समानं भवति वा?
ज्ञानाय अपि वक्तुं शक्नुमः अत्र. सत्यं, ज्ञानाय.
ओके,
सत्यं भगिनि, ज्ञानार्जनाय, किन्तु तत्र ज्ञानाय अर्जनाय इति न वक्तुं शक्नुमः, ज्ञानस्य अर्जनाय अथवा ज्ञानाय.
वाट् इस् द डिफ्रेन्स्?
तत्र भेदः नास्ति इति मन्ये, ज्ञानाय अथवा ज्ञानार्जनाय इति समानार्थक समानार्थक. अस्तु, तत्र
मोक्षाय मोक्षाय अथवा मोक्षप्राप्त्यर्थं
मोक्षार्थम् अपि चलति न
चलति मोक्षार्थं
मोक्षार्थम् अथवा मोक्षाय
प्राप्त्यर्थम् अथवा मोक्षाय
तत्र कर्तुं शक्नुमः. अस्तु, इदानीं तत्र किं कल्पते इति अस्ति, अस्तु तत् कुर्मः इदानीं. तत्र बाणचितनी महोदय भवान् उक्त पठितवान् अस्तु, तत्र अरुणा भगिनी करोति वा अत्र?
कोष्टकस्थपदानि
उपयुज्य भवन्तः किमर्थं भगवद्गीतां पठन्ति इति यथा उदाहरणं वाक्यानि वदतां. भवन्तः ज्ञानाय
भवन्तः ज्ञानाय भगवद्गीतां
अहम् इति लिखितम् अस्ति उदाहरणे.
वयं
हा तत्र अस्तु, तत्र ज्ञानार्थम् इति दत्तमस्ति, किन्तु ज्ञानाय इति अपि तत्र प्रायशः तद् रूपं स्वीकुर्मः, नो चेत् तत्र किमर्थं चतुर्थी विभक्ति, तत्र किमपि विषयः नास्ति खलु, तस्य उपयोगः. अतः ज्ञानाय इति वक्तुं शक्नुमः. अस्तु, तत्र ज्ञानाय इति
भवन्तः ज्ञानार्थं भगवद्गीतां पठन्ति.
ज्ञानार्थं भगवद्गीतां
पठामः, वयं पठामः, पठामः. समीचीनम्. अथवा तत्र सिद्धिः अस्ति चेत् तत्र किं भवति? सिद्धये अस्तु. तत्र आत्मविकासः अस्ति चेत् तत्र त्वम् इति उपयुज्य वाक्यं वदन्तु. त्वम् आत्म सर्वदा भगवद्गीतां पठामि अथवा पठसि इति भवति, तत्र आत्मविकासः. त्वं
भगवद्गीतां पठसि,
हा त्वम् आत्मविकासाय भगवद्गीतां पठसि. इदानीं चित्तशुद्धिः अस्ति चेत् किं भवति? अहं चित्तशुद्धये भगवद्गीतां पठामि. अस्तु, इदानीं धर्मरक्षा इति अस्ति, तत्र वयम् इति चिन्तयामः. वयं
धर्मरक्षायै,
धर्मरक्षायै, धर्मरक्षायै भगवद्गीतां पठामः. अस्तु, इदानीं सन्तृप्तिः,
सन्तृप्तये, सन्तृप्त्यै,
सन्तृप्त्यै. अस्तु, तत्र किं यूयं, यूयं सन्तृप्तये भगवद्गीतां पठतः, पठतः किं भवति? पठसि, पठतः, पठथ, पठथ, पठथ भवति. समीचीनम्. हा, इदानीं सुखा, सुखम् इति अस्ति, तत्र ताः, ताः सुखाय,
सुखाय
भगवद्गीतां
पठन्ति,
पठन्ति,
पठन्ति.
हा अस्तु, इदानीं एते, एते बहुवचने, एते,
एते पुण्यार्चनाय भगवद्गीतां
पठन्ति,
पठन्ति,
पठन्ति इति. अस्तु, अतः भगवद्गीतायाः पठनेन कः लाभः इति इदानीम् अवगच्छन्ति खलु?
ज्ञानसिद्धि, आत्मविकास, चित्तशुद्धि, धर्मरक्षा, सन्तृप्ति, सुखं, पुण्यार्जनं, सर्वं,
हा सर्वं भवति. अतः गीतासोपानं क्लिष्टः, बहु किमपि करणीयम् इति चिन्तनं मास्तु, अग्रे गच्छामः. एतत् सर्वे, सर्वे प्राप्नुमः, सर्वं प्राप्नुमः. अस्तु
महोदय, सिद्धिः शब्दस्य अर्थं कथं भवति?
सिद्धिः
आप्नोति, भवति,
प्राप्नोति,
प्राप्नोति
सिद्धिः.
न न न, सिद्धि, सिद्ध्यर्थं, सिद्ध्यर्थं कथं भवति?
सिद्धिः इत्युक्ते किम् इति वा?
न, विद् अर्थं, ज्ञानं, ज्ञानार्थम्. ओके,
ओ अस्तु 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 अस्तु, सिद्ध्यर्थं, सिद्ध्यर्थं, तत्र सन्धि, सन्धि भवति,
सन्धि एव
सिद्ध्यर्थं भवति.
सन्धि
सिद्ध्यर्थं,
सिद्धि इकार, अकार, यकार भवति, सिद्ध्यर्थं.
ओके,
सिद्ध्यर्थं.
अतः चित्तशुद्धि तद् तत्र,
तत्रापि
चित्तशुद्ध्यर्थं,
शुद्ध्यर्थं, शुद्ध्यर्थं,
सन्तृप्त्यर्थं.
किन्तु धर्मरक्षार्थम् इति तत्र दीर्घ, धर्मरक्षार्थम् एव. अस्तु, समीचीनम्. अस्तु
महोदय, द्वे रूपाणि सन्ति महोदय, सिद्धिः, सिद्ध्यै, सिद्धये.
सत्यं सत्यं हा सत्यं सत्यं महोदय
स्त्रीलिङ्गे भवति
स्त्रीलिङ्गे भवति मतिशब्दवत् मतिशब्दवत् हा सत्यं महोदय हा सिद्ध्यै सिद्धये इति समीचीनं महोदय हा समीचीनम् अस्तु इदानीं उमा भगिनी अग्रे पठति वा तत्र एतानि वाक्यानि परिशीलयत इति
ओ एतानि वाक्यानि परिशीलयत तत्र कल्पते
हा
कल्पते अर्थमपि न जानामि देवी सम्पत् मोक्षाय कल्पते
दैवी सम्पत्
दैवी सम्पत् मोक्षाय कल्पते
तत्र मोक्षाय
कल्पते कास् क्रियेट् क्रियेट्
इति तत्र किं मोक्षं भवति एफेक्ट् एनेबल्स् इति तत्र मोक्षम् आवश्यकं चेत् दैवीसम्पत् पूर्वम् आवश्यकं दैवीसम्पत् नास्ति चेत् मोक्षं न प्राप्नुमः तत्र दैवीसम्पत् किमर्थम् आवश्यकं मोक्षाय इति मोक्षार्थम् इति तत्र कल्पते इति प्रथमम् अस्ति चेत् प्रथमं किमर्थम् आवश्यकम् इत्युक्ते द्वितीयस्य कृते इति सो दैवीसम्पत् इस् नेसेसरि फार् मोक्षा इति फार् एनेबल्स् मोक्षा इति तादृशार्थे
अतः कल्पते वट् इस् द अर्थम्
is it kalpate it is angla bhashyam kim kurmah
happen fit okay. for cause parte correspond master
cause iti karanam
karanam
cause causes iti tadrusha tatra daivi sampat ha daivi sampat moksham janayati iti tadrusha arthe asti kintu tatra chaturthi vibhakti rupam kalpate iti यादृशः तत्र रोचते आसीत् रोचते तस्मिन् सन्दर्भे चतुर्थीविभक्ति अत्र कल्पते इति सन्दर्भे अपि चतुर्थीविभक्ति हा तदपि सत्यं सत्यं भगिनि हा इदानीम् अग्रे सूर्यकुमारी भगिनी अग्रिमं
मात्रस्पर्श
न तस्य पूर्वं
परधर्माचरणं पापाय कल्पते
अत्र सर्वे अवगच्छन्ति वा किम् अस्ति तत्र दैवी सम्पत् मोक्षाय कल्पते इति सर्वे अवगच्छन्ति वा तत्र इदानीं परधर्माचरणं पापाय कल्पते इति
पापजनाः
न पापजनः न तत्र स्वधर्मम् अस्ति मम धर्मम् अस्ति भवत्याः धर्मम् अस्ति तत् खलु तत्र धर्मभेदः भवति किन्तु स्वधर्म तस्य आचरणम् एव समीचीनं परधर्मस्य आचरणं मास्तु तत्र परधर्म आचरणं पापाय कल्पते प्रत्येकस्य मनुष्यस्य धर्मः भिन्नः अस्ति तत्र धर्मानुसारं जीवनं करणीयम् अहम् अन्यान् कोऽपि दृष्ट्वा अहं तादृशजीवनं करोमि इति अथवा आचरणं करोमि इति यदि मम मनसि चिन्तनं भवति चेत् तेन पापं भवति इति अतः परधर्माचरणं पापाय कल्पते इति अस्तु तत्र अन्यत्वा किमपि अस्ति तद् पठतु भगिनि तत्र स्वधर्माचरणम् इति अस्ति
स्वधर्माचरणं कीर्तये कल्पते
कीर्तये इति तत्र प्रथमविभक्तिरूपं किम् अस्ति
कीर्तिः
कीर्तिः समीचीनं समीचीनं
धर्म इत्युक्ते रिलिजन् वा
न न
धर्मः मम रिलिजन् इति सर्वे वदन्ति किन्तु यत् मम धर्मः दट् इस्
ड्यूटि
ड्यूटि अथवा यत् अहं वयं करणीयम् अस्ति मनसि आगच्छति एतदेव मम धर्मः इति सर्वे चिन्तयन्ति खलु प्रतिदिनं प्रतिदिनं सायङ्काले किं घण्टाद्वयं तत्र टी वि दर्शनीयम् इति तद् सर्वे चिन्तयन्ति तद् धर्मः हा किं तादृश हा तत् स्वधर्मः यस् यत् यत् मनसि हा रैट् वे
स्वभावः इति
स्वभावः हा स्वभावः इति वक्तुं शक्नुमः
समीचीनं महोदय आङ्ग्लभाषायां समानार्थकपदं नास्ति आङ्ग्लभाषायाम् अन्यभाषायां केपि समान पदं नास्ति
नास्ति नास्ति किन्तु धर्मः 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 तत् हा न सम्यक्तया न वक्तुं शक्नोमि हा किन्तु जानीमः
अग्नेः तेजसं धर्मः
किं महोदय पुनरेकवारं वदतु
जलमस्ति चेत् शीतलं शीतलं
हा तस्य हा तस्य धर्मः तस्य धर्मः सत्यं हा तत्र एकम् उदाहरणं वदामि तत्र कल्पते इति पदस्य अवगमनार्थं तत्र व्यायायम् आरोग्याय कल्पते इति व्यायायम् आरोग्याय कल्पते इति अपि अन्यत् उदाहरणमपि एकं
उत्तमं महोदय उत्तमम् उदाहरणं
तदेकमस्ति अन्यत् उदाहरणम् एतदस्ति सिद्धता सिद्धता इति सिद्धिः नास्ति सिद्धता सिद्धता इत्युक्ते प्रिपेर्ड्नेस् प्रिपेर्ड्नेस् सिद्धता परीक्षायां साफल्याय कल्पते परीक्षायां साफल्याय सिद्धता कल्पते इति अतः एतद् उदाहरणद्वयं दृष्ट्वा कल्पते इति पदस्य किञ्चित् अवगमनं भवति खलु सिद्धता परीक्षायां साफल्याय कल्पते व्यायायम् आरोग्याय कल्पते अस्तु इदानीं तत्र अरुणा भगिनी तत्र मात्रा स्पर्शाः इति
यतयन्ति सः अमृतत्वाय कल्पते
हा तत्र एतद् भगवद्गीता श्लोकमस्ति 2.15
मात्रा स्पर्शान्तकांसेय
हा किन्तु तत्र मात्रा इति मातृशब्दस्य तत्र कोऽपि सम्बन्धः नास्ति माता इति नास्ति हा तत्र मात्रा इत्युक्ते
पञ्चभूतानि महोदय
हा तत्र मात्रास्पर्शाः यं न व्यतयति हा यं न व्यतयन्ति व्यतयन्ति इत्युक्ते व्यतयन्ति इत्युक्ते ट्रबल्
पीडा
पीडा पीडां यं न व्यतयन्ति सो यः तेन न पीडितं भवति सः अमृतत्वाय कल्पते तत्र कोऽपि पूर्णार्थं तत्र श्लोकस्य पूर्णार्थं वदति वा दृष्ट्वा
मात्रा स्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः आगमापायनो नित्यास्तान्ति तीक्षस्व भारत
वदतु महोदय तत्र किमस्ति अर्थः
महोदय भगवतः उपदेशमस्ति शीतं वा उष्णं वा तस्य कार्यं तत् करोति तद् निग्रहं कृत्वा भवान् भविष्यति चेत् सफलता प्राप्तुं शक्नोति.
हा अस्तु,
जीवनं
तत्र उपरि गन्तुं शक्नुमः.
सरलार्थं महोदय, सरलार्थम्
अस्तु. अमृतत्वाय कल्पते.
कष्टं वा सुखं वा
किमपि तस्य बाधा, किमपि भवतु, तत्र धर्माचरणं यत् करणीयं तत् करोतु. अथवा हा अस्तु,
जगते एतत् आगच्छति, आगमिष्यति, आगच्छतपि. भवान् तु समस्थितिः भव
भवितव्यम् इति, समस्थितिः भवितव्यं
भवितव्यम् आम् आम्
अस्तु अस्तु, तादृशार्थः अस्तु. हा अस्तु, तर्हि तत्र कल्पते इति, हा तत्र बहुत्र भवति इति तत्र उदाहरणानि दृष्ट्वा अवगन्तुं शक्नुमः. अस्तु, तत्र हा अरुणा भगिनि, तत्र किं भगिनि, मात्रा इति माता शब्दः नास्ति, मात्रा इति अत्र अस्ति, यथा लोकम् अथवा पञ्चभूताः इति अत्र तत्र माता शब्द, तस्य किमपि सम्बन्धः अत्र नास्ति. अस्तु, उमा भगिनी अग्रे तत्र गीताध्ययनम् इति वाक्यं पठति वा.
गीताध्ययनम् आत्मविकासाय कल्पते.
हा इदानीं तदपि वाक्यं वयं पूर्वमपि दृष्टवन्तः खलु, अहम् आत्मविकासाय गीता भगवद्गीतां पठामि, गीताध्ययनम् आत्मविकासाय कल्पते इति समानार्थकं खलु. गीताध्ययनम् आत्मविकासाय कल्पते. हा अस्तु, रघुपति महोदय तत्र अन्तिमं.
क्षमतां महोदय, मात्रा मेटीरियल् वर्ल्ड् मात्रा,
पञ्चभूताः. सत्यं सत्यं भगिनि, हा सत्यं, हा समीचीनं, मेटीरियल् वर्ल्ड् समीचीनम् अस्ति आङ्ग्लभाषायां. सत्यं भगिनि, धन्यवादः.
भक्तियोगेन यः सेवेत सः ब्रह्मभूयाय कल्पते. ब्रह्मभूयाय कल्पते, यः भक्तियोगेन यः यः सेवेत, यः करोति, यथा ये ये सेवां करोति, या सेवेत इत्युक्ते सेवति, सेवेत इति भवति वा,
विधिलिङ्गकार.
हा सेवेत, हा सेवेत विधिलिङ्गकार मध्यमपुरुष बहुवचनमस्ति, या सेवेत न, यः सेवेत मध्यपुरुष न भवति, यः इति पठे सेवे, अस्तु सेवति इति
पठितवन्तः,
आत्मनेपदी अस्ति महोदय,
सेवते
रूपम् अस्ति,
एतद् लट्लकाररूपं नास्ति,
आत्मनेपदी.
सः ब्रह्मभूयाय इत्युक्ते
ब्रह्मभूयाय ब्रह्मे लीन भवति वा,
हा तादृश ब्रह्मलीना भवति अथवा ब्रह्मरूपं ब्रह्मं भवति इति तादृश अर्थे भवति. तत्र भक्तियोगेन तद् तत् प्राप्तुं शक्नुमः इति, तादृश तादृशी स्थितिः प्राप्तुं शक्नुमः इति भक्तियोगेन. अस्तु, हा तत्र उमा भगिनी अत्र अत्र अवधेयम् इति अस्ति, तत् एकवारं पठति वा मध्यभागे. हा
कल्पते इत्यस्य प्रयोगे कस्मै कल्पते तस्य चतुर्थी विभक्ति भवति. उदाहरणम् आसुरी सम्पत् बन्धनाय कल्पते.
हा दैवी सम्पत् मोक्षाय कल्पते, आसुरी सम्पत्
बन्धनाय
कल्पते. समीचीनं भगिनि, अस्तु. इदानीं तत्र उदाहरणं तत्र सूर्यकुमारी भगिनी अग्रे पठति वा तत्र शब्दान् दृष्ट्वा
शब्दान् दृष्ट्वा किं कस्मै कल्पते इति यथोदाहरणं वदत ध्यानं शान्तिः
तत्र किं किं कारणं किं कार्यं किं कास् किम् अस्ति एफेक्ट् किम् अस्ति इति दृष्ट्वा
ध्यानं शान्तये कल्पते
हा समीचीनं भगिनि ध्यानं शान्तये कल्पते मनश्शान्तये कल्पते इति हा समीचीनं भगिनि हा अस्तु रघुपतिमहोदय अग्रे
अग्रे अध्ययनं विकासाय कल्पते
हा अध्ययनं विकासाय कल्पते समीचीनं हा अरुणा भगिनी
विषयध्यानं
न विषयध्यानं
विषयध्यानं विनाशः विषयध्यानं मन विनाशाय कल्पते
हा विनाशाय कल्पते विनाशाय कल्पते तत्र मात्रा स्पर्शः तत्र मेटीरियल् वर्ल्ड् इति अस्ति विषयः अपि एतद् एतत् करोमि एतत् करोमि एतद् अस्ति तादृशविषयध्यानं देवध्यानं नास्ति विषयध्यानम् अस्ति चेत् विनाशः भवति इति कृत्वा विषयध्यानं विनाशाय कल्पते वाट् लीड्स् टु वाट् इति तादृश अर्थे कल्पते इति मन इदानीम् अग्रे मनचितनी महोदय मननं बुद्धिवर्धनं
मननं बुद्धिवर्धनं महोदय मननात् बुद्धिवर्धनाय कल्पते
न केवलं मननं मननं
मननं
बुद्धिवर्धनाय कल्पते हा समीचीनं महोदय तत्र केवलम् एकस्य एव परिवर्तनं बुद्धिवर्धनं द्वितीय तत्र मननम् इति तत्र किमपि करणीयं नास्ति केवलं बुद्धिवर्धनम् इति तद् बुद्धिवर्धनाय
मननात् बुद्धिवर्धनं भवति इति भवति
हा इति भवति इति सत्यं हा सत्यं हा अस्तु अग्रे उमा भगिनी
परिश्रमः विजयाय कल्पते
हा परिश्रमः विजयाय कल्पते समीचीनं शिवकुमारी भगिनी
स्थिरः
उत्साहः प्रगत्यै कल्पते स्थिर उत्साहः इत्युक्ते किं
नित्यं
हा नित्यं उत्साहः प्रगति इति प्रोग्रेस्
प्रोग्रेस्
प्रगत्यै
कल्पते प्रगत्यै कल्पते समीचीनं भगिनि हा अरुणा भगिनी अग्रे
गीतामृतम् अमृतत्वं गीतामृतम् अमृतत्वाय कल्पते
हा अमृतत्वाय कल्पते समीचीनं हा बानचितनी महोदय परोपकारः पुण्यं
परोपकारः पुण्याय कल्पते
हा समीचीनं महोदय हा पुण्याय कल्पते मम भगिनी अग्रे
तमोगुणः बन्धाय कल्पते
हा तमोगुणः बन्धाय कल्पते तमोगुणात् बन्धनं भवति इति
बन्धाय बन्धनाय भवति वा महोदय
तत्र बन्धः इति अस्ति बन्धः इत्युक्ते टैज् इति तादृश बन्धनम् एव इति चिन्तयामि हा बन्धः बन्धाः अस्तु हा इदानीं भानुचेतनी महोदय अन्तिमं तत्र श्लोकमस्ति तद् एकवारं पठति वा तद् पठित्वा समापयामः
एतेषु श्लोकेषु चतुर्थीविभक्तिरूपाणि अवलोकयत कृष्णाय वासुदेवाय देवकी नन्दनाय च नन्दगोपकुमाराय गोविन्दाय नमो नमः प्रपन्न पारिजाताय स्तोत्र वेत्रैकपाणये ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः। परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्मसंस्थापनार्थाय संभवामि युगे युगे। इदं तेनातपस्काय नाभक्ताय कदाचन न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति।
धन्यवादः महोदय। हा तत्र चतुर्थीविभक्तिरूपाणि सन्ति खलु। अत्र चतुर्थीविभक्ति बहुत्र भवति, तत्र वयं प्रयोगान् दृष्टवन्तः, क्रुध्यति, ईर्ष्यति, किमर्थं, रोचते अपि, नमः इति अपि श्लोकेषु अपि वयम् एतद् चतुर्थीविभक्तिरूपं द्रष्टुं शक्नुमः। तत्र केवलम् उदाहरणार्थम् एतत् तत्र अहं वदामि, तत्र किम् अर्धनारीश्वरश्लोकः अस्ति, शिवाय नमः शिवायै नमः इति प्रसिद्धश्लोकः अस्ति, तत्र चतुर्थीविभक्तिरूपम् अस्ति। शिवमानसपूजः इति श्लोकः अस्ति, तत्रापि चतुर्थीविभक्तिः अस्ति। अतः चतुर्थीविभक्ति बहुत्र भवति, षष्टिविभक्ति अपि बहुत्र भवति, चतुर्थीविभक्ति अपि बहुत्र श्लोकेषु बहुत्र भवति। अस्तु तर्हि वदतु भगिनि।
रामाय रामभद्र,
हा सत्यं, हा गतवर्गे दृष्टवन्तः तत्रापि, हा अतः तत्र चतुर्थीविभक्तेः प्रयोगः बहु समीचीनः अस्ति, तस्य ज्ञानम् आवश्यकम् अस्ति। अस्तु तर्हि विरमाम, अग्रिमवर्गे मिलामः। सर्वेभ्यो नमस्कारः, धन्यवादः, अग्रिमवर्गे
मिलामः।
हरि ओम् महोदय, नमस्कारः, धन्यवादः। हा बहु समीचीनमासीत् अन्ते श्लोकपठनं। हा
महोदय, भगवतः श्लोकः,
हा अतः बहु सम्यक् अस्ति, तद् अस्ति चेत् मन शान्तिः भवति। हा अस्तु, धन्यवादः महोदय, नमस्कारः,
हरि ओम् महोदय,
हा शुभदिनं, नमस्कारः।